सर्वसम्पद्विभागयोगः श्रीभगवानुवाच अभयं सत्त्वसं शुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमश्च यज्ञश्च स्वाध्यायस्तपार्जवम् अहिंसा सत्यमक्रोधः त्यागशान्तिरपैसुनं दयाभूतेष्वलोलुप्त्वं मार्दवं ह्रियरचापलं तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता भवन्ति सम्पदं देवीम् अभिजातस्य भारत दम्भो दर्पोऽभिमानश्च क्रोधपारुष्यमेव च अज्ञानं चाभिजातस्य पार्थसम्पदमासुरीं दैवी सम्पद्विमोक्षाय निबन्धायासुरीमता मासु च सम्पदं देवीम् अभिजातोऽसि पाण्डवा द्वौ भूतः सर्गौ लोकेऽस्मिन् दैव आसुर एव च दैवो विस्तरश प्रोक्तः असुरं पार्थ मे शृणु प्रवर्तिं च निवर्तिं च जनान विदुराशराः न शौचं नापि चाचारः न सत्यं तेषु विद्यते असत्यमप्रतिष्ठां ते जगदाहुरनीश्वरम् अपरस्परसम्भूतां किमन्यत् कामहैतुकम् एतां दृष्टिममस्तभ्य नस्तात्मानोऽल्पबुद्धयः प्रभवन्त्युग्रकरमाणः क्षयाय जगतो हिताः कामामाश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहाद् गृहीत्वा सद्ग्राहान् प्रवर्तन्ते सुचीव्रताः चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः कामोपभोगपरमाः एतावदति निश्चिताः आशापाशसतेर्बद्धाः कामक्रोधपरायणाः ईहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयान् इदमद्य मया लब्धम् इमं प्राप्से मनोरथम् इदमस्तीदमपि मे भविष्यति पुनर्दनम् असौ मया हता शत्रुः हनिष्ये चापरानपि ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी अद्योभिजनवानस्मि कोण्योऽस्तिषदृशो मया यक्षे दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः अनेकचित्तविभ्रान्ताः मोहजालसमावृताः प्रसक्तकामभोगेषु पतन्ति नरके शुचौ आत्मसम्भावितास्तब्ध धनमानमदान्विताः यजन्ते नाम यज्ञैस्ते दम्भेन विधिपूर्वकम् अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ममात्मा परदेहेषु प्रद्विषन्तो व्यसूयकाः तानहं द्विषत क्रूरान् संसारेषु नरादमान् क्षिपाम्यजस रामशुभान् असुरिष्वेव योनिषु असुरीन्योनिमपन्नाः मूढजन्मनि जन्मनि ममाप्राप्यैव कौन्तेय ततो यन्त्यादमां गतिं त्रिविधं नरकस्येदं द्वारं न सानमात्मनः काम क्रोधस्तथा लोभः तस्मादेतत्रयं त्यजेत् एतेर्विमुक्त कौन्तेय तमोद्वारैस्त्रिभिर्नरः आचारात्यात्मना श्रेय ततो याति परां गतिं या शास्त्रविधिमुसृज्य वर्तते कामकारतः न स सिद्धिमवाप्नोति न सुखं न परां गतिं तस्माच्चास्त्रं प्रमाणं ते कार्यकार्यव्यवस्थितौ नाद्वशास्त्रविदानोक्तं कर्म कर्तुमिहार्हसि ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः।